नमस्सर्वेभ्यः अद्य प्रौढमनोरमायाः अच्छसन्धिप्रकरणे नवमः पाठः एप्रिल् मासस्य द्वादशः दिनाङ्कः येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ध्यायं ध्यायं परं ब्रह्म स्मारं स्मारं गुरोर्गिरः सिद्धान्तकौमुदी व्याख्यां कुर्मः प्रौढमनोरमाम् गतसप्ताहे किं किमधीतम् इति किञ्चित् पश्यामः. ततः पूर्वं शुद्ध्युपास्यः गणादेशः शुद्ध्युपास्यः ततः तत्सम्बन्धीनि सूत्राणि अधीतानि. ततः धात्रंशः इति यण्सन्धेः अपरमुदाहरणम्. शुद्ध्युपास्यः इत्यत्र अनचि च इत्यनेन धकारस्य द्वित्वं क्रियते. तेनैव सूत्रेण धात्रंशः इत्यत्र तकारस्यापि द्वित्वं क्रियते. तत्र धकारद्वयम् अत्र तकारद्वयम्. तथैव तत्र यणोमयोद्वे वाच्ये इत्यत्र यणः षष्ठी यणः इति षष्ठी इति पक्षमाश्रित्य यकारस्यापि द्वित्वं भवति. अत्रापि रेफः अस्ति धातृ धातृ अंशः. रेफस्य द्वित्वं भवति वा यणोमयोद्वे वाच्ये इति प्रश्ने न भवति इति उत्तरम्. कुतो न भवति चेत् अचोरहाभ्यां द्वे इति द्वित्वप्रकरणे अतःपराभ्यां रेफहकाराभ्यां परस्य यरः द्वित्वं विधीयते. तस्मिन् सूत्रे रेफः निमित्तम्. निमित्तत्वेन श्रुतत्वात् कारी न भवति. परिभाषा एव अस्ति कार्यमनुभवन् हि कारी निमित्ततया न श्रीयते. कारी भिन्नः निमित्तं भिन्नम्. अतः निमित्तम् इति पाणिनिना साक्षात् सूत्रे श्रुतत्वात् तस्य कार्यत्वम् अर्थात् रेफस्य द्वित्वं कदापि न भवति इत्यर्थः. धात्रंशः इति अत्र रेफस्य द्वित्वं न. द्वित्वप्रकरणे रहाभ्याम् इति साक्षात् श्रुतत्वेन निमित्तभावेन रेफस्य कार्यत्वबाधात्. सिद्ध्युपास्यः इत्यादौ तु स्थानित्वेन निमित्तत्वम् इकः तस्मादित्युत्तरस्य इत्यादि निर्देशात् ज्ञापकान् न बाध्यते इति कैयटः. शुद्ध्युपास्यः इत्यत्र इक् स्थानी. स एव इक् उपास्यः इत्यत्र उकाररूपेण निमित्तत्वेनापि आश्रीयते. तत् कथम् इति चेत् तस्मादित्युत्तरस्य इति पाणिनिनिर्देशात् तद्भवति इति कैयटः. तकारस्य तु भवत्येव इति उक्तम्. तच्च वा इत्यतः अत्र रूपद्वयम्. धात्रंशः इति तकारद्वित्वेन एकं रूपं, तकारस्य द्वित्वाभावे एकम्. लाकृतिः इति तु एकमेव. फार् लाकृतिः ल आकृतिः द्वित्वं द्वित्वस्य निमित्तं नास्ति यतः द्वित्वं न भवति. एकमेव रूपम्. अग्रिमं सूत्रमस्ति हलो यमां यमिलोपः. हलः परेषां यं वर्णानां यं वर्णे परे लोपो भवति. अत्र विकल्पानुवृत्तिः अस्ति. जयोः अन्यतरस्याम् इत्यनेन अन्यतरस्याम् इति अनुवर्तते. अतः वैकल्पिकः लोपः. तथा च यमां यमि इत्यत्र यथासङ्ख्यत्वम् अस्ति. अर्थात् तस्य यं वर्णस्य तस्मिन् यं वर्णे परे, यकारस्य यकारे परे लोपः, वकारस्य वकारे परे लोपः इत्येव नियमः. तत्र न्यासान्तरं केनचित् पूर्वपक्षिणा आक्षिप्यते. हलो यमां यमिलोपः इति एकं सूत्रं. ततः झरो झरि सवर्णे इति अपरं सूत्रमस्ति. उभे अपि सूत्रे मिलित्वा हलो यरां यरि सवर्णे लोपः. यमां यमि इत्यस्ति, झरो झरि इति अग्रिमं, यं तथा झर् उभयं मिलित्वा यरां यरि सवर्णे लोपः इति क्रियताम्. किमर्थम् भिन्नं सूत्रम् इति प्रश्नः. तत्र वदति एवं न सम्भवति. किमर्थम् एवं कृते यत्र वर्गीय व्यञ्जनस्य अनुनासिक परत्वम् अस्ति यथा आर्धनोत् इति रेफार्थः धकारः नकारः धकारस्य नकारे परे लोपः स्यात् यतो हि परस्परं वर्गे सर्वेषां परस्परं सावर्ण्यमस्ति इत्यतः च वर्गेषु आद्यानां चतुर्णां पञ्चमे परे लोपः प्रसज्येत यमाम्यमिलोपः इत्यत्र तु अनुनासिकं पूर्वतनसूत्रे अस्ति झरोझरि इत्यत्र अनुनासिकाः न गृह्यन्ते यदि एकमेव सूत्रं क्रियते तर्हि सावर्ण्यस्य सत्त्वात् वर्गेषु आद्यानां चतुर्णां पञ्चमे परे लोपः प्रसज्येत अतः तादृशं सूत्रं न कृतं पाणिनिना हलो यमां यमिलोपः झयोः इत्यतः अन्यतरस्याम् इत्यनुमुक्तेः लोपः स्याद्वा एतच्च लण् सूत्रे भाष्ये स्पष्टम् माहात्म्यम् इति अत्र मलोपो न तकार मकार यकारः सन्ति मकारः अपि यम् वर्णः यकारोऽपि यम् वर्णः किन्तु यथासङ्ख्यत्व अङ्गीकारात् अत्र मकारस्य लोपः न भवति हलो यरां यदि सवर्णे लोपः इति तु न सूत्रितम् आर्ध्नोत् मूर्ध्नः शार्ङ्गम् आर्थ्नी इत्यादौ रेफात् परस्य लोपापत्तेः यत्र यत्र अनुनासिकः तथा अन्येषां वर्गीयव्यञ्जनानां प्रसक्तिरस्ति तत्र लोपः स्यात् वान्तो युप् प्रत्यये इति अग्रिमं सूत्रम् यकारादौ प्रत्यये परे ओदौतोः अवावौ आदेशौ स्तः इति सूत्रार्थः यि प्रत्यये इत्यस्ति तत्र यकारादौ प्रत्यये इति कथमर्थः क्रियते इति प्रश्नः प्रायेण येन विधिस्तदन्तस्य इति भवति विशेषणं तदन्तस्य संज्ञा स्यात् यि इति प्रत्यये इत्यस्य विशेषणम् अतः यकारान्ते प्रत्यये इति स्यात् किल इति प्रश्नः तस्य सूत्रस्य अपवादभूतं वार्तिकमेकमस्ति यस्मिन् विधिस्तदादावल्ग्रहणे अल्ग्रहणे यत्र एकः अल् गृह्यते यस्मिन् विधिः सप्तमी विभक्तौ गृह्यते तदा तदादौ इत्यर्थः अत एव यि इति सप्तम्यामस्ति एकः अल् एव गृहीतः अतः यकारादौ प्रत्यये इत्यर्थः क्रियते अस्तु अत्र स्थानिनोः निर्णयः कथम् वान्तः इति आदेशः निर्दिष्टः यि प्रत्यये इति निमित्तं निर्दिष्टम् स्थानीकः इति प्रश्नः तदा ओदौतोः ओकारस्य अवादेशः औकारस्य अवादेशः वान्तः नाम तदेव अव् आव् तत्र ओकारस्य अव् औकारस्य आव् इति निर्धार्यते कथम् इति चेत् पूर्वसूत्रे एचोयवायामः इत्यत्र तथैव किल एकारस्य अय् ओकारस्य अव् ऐ इत्यस्य आय् औ इत्यस्य आव् इति निर्णयः स एव स्थानी अत्रापि गृह्यते किञ्च वकारप्रश्लेषः वान्तः इत्यत्र व् वान्तः इति वा अथवा तत्र वार्तिकमस्ति गोर्यूतौ छन्दसि गोशब्दस्य युतिशब्दे परे अवादेशः गव्युतिः इति भवति तत्र गोर्यूतौ छन्दसि इत्यत्र थकारात् पूर्वं वा वकारः प्रश्लिष्यते नाम वकारः आसीत् लोपोव्योर्वलि इत्यनेन लुप्तः इत्युच्यते किमर्थं सः वकारः किं प्रयोजनम् इति चेत् श्रूयमाणवकारान्तः आदेशः यः अनेन सूत्रेण वार्तिकैर्वा अवादेशः क्रियते सः श्रूयमाणः अर्थात् तस्य लोपः न भवति अत एव कुत्रापि गव्युतिः इत्यत्र लोपशाकल्यस्य इति वा हरिसर्वेषामिति वा लोपः न भवति आदेशस्य आदेशावयवस्य वकारस्य वान्तो हि प्रत्यये यकारादिः विशेषणम् आत्मान्तस्य संज्ञा स्यात् इत्येतदर्थकस्य येन विधिः इति सूत्रस्य अपवादभूतेन यस्मिन् विधिस्तदादावल्ग्रहणे इति वार्तिकेन अयमर्थो लभ्यते ओदौतोरिति पूर्वसूत्रे तयोरेव वान्तौ प्रति स्थानित्वेन निर्णीतत्वात् इत्यर्थः ननु गव्युतिः इत्यत्र हलिसर्वेषामिति लोपशाकल्यस्य इति वा लोपः स्यात् इति आशङ्क्याः वान्तः इति तदेव श्रूयमाण वकारान्तः आदेशः स्यात् इति धातोस्तन्निमित्तस्यैव इति सूत्रम्। धातोः यदि यकारादौ प्रत्यये परे वान्तादेशः भवति तर्हि तन्निमित्तस्यैव यत्र स्थानी अर्थात् ओकारः ओकारो वा प्रत्ययनिमित्तकः तत्रैव तस्य वान्तादेशः भवति। लव्यम् अवश्यलाव्यम् इति उदाहरणद्वयम्। लू धातोः यत् प्रत्ययः सार्वधातुकार्धधातुकयोः इत्यनेन अर्धधातुके प्रत्यये परे धातोः गुणेन ओकारः जायते, अतः तन्निमित्तत्वात् तस्मिन् प्रत्यये परे अवादेशः लव्यम्। अवश्यलाव्यम् अवश्य इत्यस्मात् लू धातोः ण्यत् प्रत्ययः, ण्यत् प्रत्यये लू य इत्यस्य प्रत्ययं निमित्तीकृत्य अचोर्णिति, णिति प्रत्यये परे अजन्तस्य वृद्धिर्भवति इत्यनेन लौ इति औकारादेशः, तस्य तस्मिन् परे आमादेशे अवश्यलाव्यम् इति रूपम्। ततः क्षय्यजय्यौ शक्यार्थे, शक्यार्थे क्षय्यं जय्यम् इति निपातनं क्रियते, साक्षात् सिद्धप्रक्रियः। क्षेय इत्यस्यते अयादेशः निपात्यते अत्र। शक्यार्थे क्षेतुं शक्यं, जेतुं शक्यं, दट् विच् इस् केपबल् आफ् बीङ्ग् डिक्रीज् आर् बीङ्ग् कान्कर्ड् इत्यर्थे। लोपशाकल्यस्य इति सूत्रम् सूत्रे लव्यम् इति लुनातेः अचोयत् सार्वधातुकार्धधातुकयोः इति गुणः, अवश्यलाव्यम् इत्यत्र ओरावश्यके इति ण्यत्, क्षय्यजय्यौ शक्यार्थे क्षय्यम् इति शकिलिञ्च इति चात् कृत्याः, क्षेयम् इति अर्हे कृत्यकृत्यश्च इति यत्। उभयत्र प्रत्ययः समानः किन्तु कार्यम् अत्र अयादेशः भवति अत्र न भवति इत्यर्थः। लोपशाकल्यस्य इत्यत्र हर एहि इति उदाहरणं दत्तम्। हरे एहि तिष्ठते एचोयवायामः इत्यनेन अयादेशः, हरय एहि तत्र यकारस्य लोपशाकल्यस्य इत्यनेन लोपः, हर एहि। इदानीम् अत्र स्वरसन्धिः भवति वा इति प्रश्ने लोपशाकल्यस्य इति त्रिपाद्यां वर्तते अतः स्वरसन्धिः न भवति असिद्धत्वात् इत्युत्तरम्। कः सन्धिः प्राप्तः इति प्रश्ने ओमाङ्गोश्च इति पररूपं प्राप्तम्। एहि आ इहि इत्यस्ति, आङि ओमि आङि च आत्परे पररूपमेकादेशः स्यात् इत्यनेन पररूपं प्राप्तं न भवति, लोपस्य असिद्धत्वान् न भवति इत्यर्थः। ततः उरण् रपरः, उहु अण् रपरः, तत्र अन्तरतम ऋकारस्य स्थाने यः अण् सः रेफशिरः श्रेफशिरः भवति, अर्थात् ऋकारस्य अर् इति भवति लकारस्य अल् इति। कथं निर्णयः? रेफशिरस्कस्य अर् इत्यस्य रेफद्वारा ऋकारेण स्थानसाम्यात्। अर् इति स्थिते ऋकारस्यापि मूर्धा स्थानं रेफस्यापि, एवम् अल् इति स्थिते लकारस्य दन्ताः स्थानम् एवं लकारस्यापि इति अन्तरतम्यात् कृष्णर्धिः इत्यत्र अर् तवल्कारः इत्यत्र अल्। पक्षे द्वित्वं नाम ऋधेर्धस्य कृष्णर्धिः इत्यस्ति, तत्र धकारस्य द्वित्वं भवति। उरण्परः ततः सूत्रमस्ति झरोझरि सवर्णे, हलोयमाम्यमि लोपः इति दृष्टं, तस्य अग्रिमं सूत्रं झरोझरि सवर्णे। अत्रापि विकल्पानुवृत्तिः अस्ति, अर्थात् झयोः अन्यतरस्याम् इत्यनेन अन्यतरस्याम् इत्यनुवर्तते, अतः वैकल्पिकः लोपः। पूर्वग्रन्थे अर्थात् प्रक्रियाकौमुद्यां विकल्पः नोक्तः, अत एव तत्र न्यूनता इति दीक्षिताः प्रतिपादयन्ति, अयं लोपः वैकल्पिक एव। कथं ज्ञायते इत्यत्र केचन वदन्ति शरोचि इत्यस्य ज्ञापकत्वम्। अचिपरे शर्वर्णानां द्वित्वं निषिध्यते, यदि अयं लोपः नित्यः तर्हि द्वित्वे कृतेऽपि लोपः भवति इत्यनेन एक एव शर् श्रूयते, तथा सति शरोचि इति सूत्रं व्यर्थं स्यात्, व्यर्थं स ज्ञापयति इदं अयं विकल्पेन विकल्पेनापि द्वित्वस्य श्रवणं नेष्यते इत्यतः शरोषि इति निषेधः सार्थकः इति केचन वदन्ति किन्तु तन्न संभवति किमर्थं यदि प्लीज एक्सक्यूज मी जस्ट अ मोमेंट sorry यदि शलो धरोधरि सवर्णे इति लोपः नित्यः तर्हि द्वित्वं तस्य अपवादः यत्र अचोरहाभ्यां देति द्वित्वं विधीयते अपवादः भवति यतो हि यत्र यत्र द्वित्वं क्रियते तत्र सर्वत्र यदि लोपः तर्हि द्वित्वं व्यर्थं स्यात् अतः द्वित्वं अपवादत्वेन प्रवर्तते तस्य निषेधार्थं शरोचि इति सूत्रम् आवश्यकम् अतः तस्य ज्ञापकत्वं न संभवति विकल्पः इति अनुवर्तते किन्तु तत्र ज्ञापकं शरोचि इति न भाष्यकारस्य वचनमेव स्वीकरणीयम् अथवा अन्यत् ज्ञापकम् आश्रयणीयम् सो देर् आर् कामेण्टरीस् विच् गिव् वाट् कुड् बी द अदर् वन्स् बट् लेट्स् नाट् गो इन् टु देम् रैट् नौ सो लोपो वा इति धरोधरि स्वर्णे इति सूत्रे झयोहोऽन्यतरस्याम् इति सूत्रात् विकल्पानुवृत्तेः एतत् नाद्धलौ इति सूत्रे भाष्यकैयटयोः स्पष्टम् प्राचस्तु विकल्पानुवृत्तेः अनुक्तेः न्यूनता यदपि व्याख्यातृभिः शरोचि इति ज्ञापकम् अभिप्रेत्य तत्संवादार्थम् भाष्यम् उपन्यस्तम् अनुवर्तते विभाषा शरोचि यद्वारयत्ययम् द्वित्वम् इति तन्न तदुत्तरभाष्ये एव उक्तज्ञापकस्य दूषितत्वात् लोपस्य हि नित्यत्वे अचोरहाभ्याम् इति द्वित्वम् लोपापवादः स्यात् तथा च शरोचि इत्यस्य सार्थक्यम् स्पष्टमेव तस्मात् विकल्पानुवृत्तौ ज्ञापकान्तरम् अनुसर्तव्यम् भाष्यकारादिव्याख्यानमेव वा शरणम् ततः कृष्णर्भिः इत्यत्र कथम् रूपत्रयम् इति ऋधुधि इत्यस्ति तत्र धकारस्य वैकल्पेन द्वित्वं क्रियते अचोरहाभ्यां द्वे इत्यनेन सो द्वित्वे कृते धकारत्रयमस्ति द्वित्वे कृते झरोधरि सवर्णे इति एकः धकारः लुप्यते अथवा द्वित्वं वैकल्पिकम् अतः द्वित्वमेव न क्रियते इति उभयथापि धकारद्वयं श्रूयते द्वित्वं न क्रियते ऋधुधि इत्यस्ति साक्षात् झरोधरि सवर्णे इत्यनेन लोपः क्रियते चेत् ऋधि इति एकमेव धकार एक एव धकारः श्रूयते अतः कृष्णर्धिः इत्यत्र रूपत्रयम् इति तदेव द्वित्वलोपयोः ततः त्रिधम् अस्ति यणोमयोद्वेवाच्येति लक्षणान्तरेण पुनर्द्वित्वे तु चतुर्थमपि बोध्यम् तदपि सम्भवति अस्तु अग्रिमं सूत्रमस्ति एत्यधत्युट् कः अर्थः सूत्रस्य कोऽपि स्मरति वा सिद्धान्तकौमुद्यां कः अर्थः दत्तः किं दलकृत्यं किमस्ति इत्यादि
अवनात् एचादोः अवनात् एचादोः एत् एदत्योः उडिचपरे वृद्धि एकादेशः स्यात्
सत्यं सः एव सूत्रार्थः अवर्णात् एद् अद्योः एत्येधत्योः उठि च परे वेन् अकार is followed by eti or edhati. Eti is in dhatu and edhati is edh dhatu. Or oot. Vriddhi hi ekadesha bhavati. Pararupa gunapavadaha. Iti ucchate. Arthat, yatra akarat ejadihi dhatu bhavati. Tatra, eni pararupam ittinena pararupam prapnoti. And the akara of an upasarga is followed by ekara of a dhatu. We always have pararupa. Tasya pararupasya apavadaha. Athava gunasya. Yatra avarnad ukaraha, ukaraha paraha bhavati, tatra adgunaha ityanena gunaha prapnoti, tasya api apavadaha. Upaiti, upa eti. I am in dhatuhu, ejadihi, beginning with a, so upa eti it is thita. Actually, originally it should have been vriddhi. Pararupa overrules vriddhi, and this sutra overrules pararupa again to bring in vriddhi. Upaiti. Evam upaidhate, upa edhate. Eti edhati tatha uh prashta uhaha. Tatra uth uhaha iti sthite prashta uhaha iti udaharanam. Tatra vicharaha atra eti iti anuvartate. Vriddhireti iti purva sutram vriddhi eti utyasmad eti iti anuvartate. Tatra etereva visheshanam natu edhatehe avyabhicharat. Napi utaha asambhavat iti prantaha. Prachinaha kimbadanti tatu nama eti iti anuvrattam. Kimartam eti, eti iti visheshanam. Tasya visheshanam iti chete, etehe nama in dhatoho. In dhatoho kim, in gatau iti dhatoho, eti itaha yanti ityadi nirupani. Ataha saha ejadirapi asti, avejadirapi asti. There are forms where it begins with H, that is Ekara, and there are forms where it does not begin with H. Tathasati, yatra ejaditvam, tatra eva vriddhihi. Right? Arthatu, upa eti iti sthite, upa iti iti bhavati. Hindu upa itaha iti sthite, upa itaha iti guna eva vriddhihi na bhavati. Ata eva, ejadau eti, etau pare. Arthatu, when followed by a form of in dhatu which starts with H, starts with ekara. Iti visheshanam, etehe visheshanam bhavati. Atratu edhatyehe api visheshanatvena dattam. Ejadyohu etyedhatyohu. That is the edh dhatu which starts with H, that is ekara. Kintu prachinaha vadanti tatya etereva visheshanam natu edhatehe. Kimartham na avyabhichara. Edhatoho kim rupam, edhate, edhete, edhante ityadi. Sarvatra yam ejadireva. All forms of edhatu begin with ekara. Et. Okay. So there are some cases where it might begin with I. I mean, langlakare, aidhata, aidheta, aidhandati. Tasapi, sopi, et eva. Sarvatra yam ejadihi, tarhi eti iti kimartham visheshanam. Visheshana is applied only when both are possible. That is, eti iti visheshana datte. Yadi ejadirapi asti, anejadirapi asti, tatra eti iti visheshanam sarthakam. Yadi sarvatrayam ejadihi, tadhi kimartham visheshanam. Visheshanam napekshyate. Iti prachinana matam. Tatra etereva visheshanam natvedhatehe avyabhicharat, napi uthaha. Uthaha ityasyapi visheshanam bhavitum narhati. Kimartham, uth, sarvada ukaradhireva. It is always ukara. It is never converted to an h. Therefore, if you say echi uti, it is impossible. You will never get ut which begins with an h. Ataha napi utaha asambhavat. So the echi which we are bringing in by anuvritti will qualify only eti, that is in dhatu. It will not be associated with either edha dhatu or ut. Is what the previous Shastrakara say. Tatra Dikshitaha Vadanti Atra Kayataha Kayataha Kayatasya Matam Edhaterapi Visheshanam. It will also qualify Edhadhatu. Ma Bhavan Predidhat Ityatra Vyabhicharat. Because there is a case where a form of Edhadhatu does not begin with Ekara. He gives an example of Ma Bhavan Predidhat. Yadyapitam Kayita Pustakeshu Prayeda na Drishyate, Tathapi Kvachit Drishyate Eva. So remember, the Dikshita is talking about, is writing in an age where there are no printed books. He is referring to manuscripts. So he clearly says, in many books you do not find this line, that is this point, which Kayata probably makes under Etyatha Tyutsu, is not found in many of them. Tathapi Kvachit Drishyate Eva. But in a few manuscripts, you do find this line where Kayata says that it has to be a Visheshana even for Edha Dhatu. Ma Bhavan Predidhat Ityasti. Ma Ityasti Pra Ityapasargaha Edha Dhatu Ho Tasya Nijantaha. Hetumaticha Ityanena Nich Pratyaha. Nijantat Lunglakaraha. Edhi is the Nijantan Hatu. Sanajantan Hatavaha Ityanena Dhatu Tumasti. Tasmat Lunglakaraha Kriyata. Okay, so Lunglakara form of Nijanta of Edha. Lung ityanena lakaraha. Namang yoga iti adagama nishedha. At at. Sarvatra lung lung rungshu at udataha ad ajadinam. Yadi dhatu ho ajadihi tarhi at ityagama bhavati. Yadi haladihi tarhi at. That is why you have the apathat, agachat, etc. Okay, so that is the agama. Namang yoga. If there is ma, you will not have at or at. That is why the udaharane has, udaharana has ma. Okay. So because to prevent that adagama. And so we don't have at. So you have edhi, tip pratyaha kriyate, tittas jhitinena, tatra itascha itinena ikarasya lope, edhi t, edhi iti nijantaha dhatuhu, t iti pratyaha. Chli lungi, itinena lung lakare chli iti vikaranaha. Okay. That is what applies everywhere. Tataha nishridrusrubhyaha kartari chang. Chli ityasya sthane chang iti adeshaha bhavati. Ni, nijantat parasya, chli ityasya chang iti adeshaha kriyate. Edhi a tu. Nau chang yupadhaya hrasvaha iti sutram. Nau changi, when there is nichu followed by chang. The ikara here is that of nichu and akara is chang. Nau changi upadhaya hrasvaha. The upadha, edhu ityasya upadhaya masti ekaraha. Alontyant purva upadha. So upadhaya hrasvaha. Ekarasya hrasvaha nama ikara. There is no hrasva a. Echaig hrasva deshe iti paribhasha. Wherever we have to shorten H letters, we replace them with ik. So A is replaced by I. Okay. So ma pra idhi a t. Kaste. Idanim dvitvam bhavati. Changi pare. Sarvadan dvitvam bhavati. Chang prateya pare. So the dhi is doubled. I dhi dhi. Okay. So this dvitva, we will study, if you study the prakriya of tingantra, you will know that if it is a haladi dhatu, the first ekat, that is the first hal along with the swara will be doubled. If it is ajadi, then the second ekat, that is the ach and the consonants associated with it will be doubled. So since this is ajadi, the second one, that is dhi, is doubled. So you have dhi dhi, at, a is from chang and pratyaya. Idanim neraniti ityanena nichaha lopha. Okay, this anidadav ardhadhatuke pratyaya pare, asya ikarasya lopaha, idhi dh at, abhyase charcha ityanena dhakarasya dhakaraha, idhi dhat, pra idhi dhat ityasti. Okay, this is the derivation of the form. Now you see that this is edhadhatu, and it is not starting with an ekara. Should we do vriddhi here or not? Yadi ejadehe iti edhatehe visheshanam na bhavati, tarhi atrabi vriddhi prapnoti. If we do not qualify edhu with ejadehe edhathatoho, then here also we should do vriddhi. Right? Because edhatyo pare, when akarat edhathato pare vriddhi bhavati itinen vriddhi prapnoti na ishyate. Kim rupam predidhat. इति गुण एव इष्यते वृद्धिः नेष्यते अत्र वृद्धिं वारयितुम् एधदेरपि एजादित्वं विशेषणं क्रियते अत एव सूत्रार्थे किमुक्तम् एजाद्योः एत्येधत्योः उभयोः एजाद्योः इति विशेषणं दत्तं दीक्षितैः इस् दिस् मच् क्लियर् If you not studied the Tinganta Prakriya, concentrate on these steps. First, Chili is replaced by Chang. Okay, that is the first. It is Nijanta followed by Lung Lakara. So, there is Chang. Because of the Chang, one is there is Upadha Hraswa. Okay, the Upadha Swana is Hraswa. That is how we get an Edhadhatu which is not Ejadi. Okay, the Ekara is shortened to Ikara. And then there is Dvitva by Chang. Okay, so these are the key points to be noted. Okay, so there are more arguments and answers based on this. Nacha, nau changi iti hrasme krute, naya medhatihi iti vachyam. Nau changi iti hrasme krute, nau changi padhaya hrasmaha ittenena, ekarasya hrasmaha kriyate, there's a question, did I say Upadha Swara? No, I said Upadha Hasva. The Upadha is shortened. Okay. So, Nau Changi Upadhayaha Ityanena Upadha Hrasve Krute Ayam Edhatihi Na. This is no longer Edhadhatu. It is an argument. You have derived it. You don't see Edh there. How do you call that this is Edhadhatu? The question. Iti Na Vachyam Iti Anvayaha. Nau Changi Iti Hrasve Krute Nayam Edhatihi Iti Na Vachyam. Kutona, why not? I mean, you should be able to answer this. Why not? We have shortened it. It is no longer Edh. So, why do we still call it Edhadhatu? Anybody? Think over it before that there is some doubt which I will answer. We do Chang, Edhi, A, T, now the Hraswa, now Changi Upadhayaha Hraswaha. Ni is Ikara and Chang is Akara. So, Idhu, E, A. So, when followed by Ni plus Chang, okay, the Upadhaya of Idhu, Edhu, I mean, you get Ikara after you do Hraswa. Edhu, E, A. इत्यस्ति सो इकार अकार चङ्परे णौ एध इत्यस्य उपधायः द उपधा इन् एध इस् एकार सो इट् इस् शार्ट् एण्ड् इकार ढकार इस् नाट् द उपधा बिकास् वी आर् टेकिङ्ग् नी इस् कमिङ्ग् टु द प्रत्यय पार्ट् णौ चङि वेन् फालोड् बै नी प्लस् चङ् सो द नी इस् यु रिमूव् इट् हियर् इट् इस् एकार विच् इस् द उपधा So that is how we have converted Ekara into Ikara. So can anybody tell me why? Once we apply Hraswa, is it still Edhadhatu or not? Buddy, very simple rule. Ekadesha Vikrutasya Ananyatvaat. Ekadesha Vikritam Ananyavat. If we change only a small part of something, it does not become something else. Everywhere, I mean, you do Vriddhi, you do something, you shorten, you lengthen. So it will not change the original property. Okay, as long as you are affecting only a small part of something, Ekadesha Vikritam Ananyavat. It is not something else. It is still the same. So because of that, It is still Edhadhatu. Asve kritepi, I am Edhadhatu reva. Nacha, evamapi, ajader dvitiyasya iti, dhishabdasthane dhidhi shabdadeshe sati, vasnasoriva prakriti pratte vibhaga sammohaha iti vachyam. There is a second objection raised to this example. What are we doing here? We are doing dvitva, right? Changi ityanena dvitvam kriyate. तस्य द्वित्वं क्रियते धी धी। अजादेः द्वितीयस्य इति नियमः, यत्र धातुः अजादिः तत्र द्वितीयस्य एकाचः द्वित्वम्। ऑलवेज द द्वित्वा स्टार्ट्स विथ एकाचो द्वे प्रथमस्य, अजादेर् द्वितीयस्य। प्रथमस्य एकाचः द्वे, द फर्स्ट एकाच, एकाच मीन्स द फर्स्ट वोवेल अलोंग विद द कॉन्सनेंट्स असोसिएटेड विथ इट। टिल वी मीट अ सेकेंड अच, एवरीथिंग दट कम्स बिफोर दट, द स्वरा एंड ऑल कॉन्सनेंट्स आर एकाच, टुगेदर दे आर कॉल्ड एज एकाच। सो एकाचो द्वे प्रथमस्य, वेर एवर वी डू द्वित्वा, प्रथमस्य एकाचः द्वे, द फर्स्ट एकाच, दट इज द फर्स्ट अच एंड द कॉन्सनेंट्स असोसिएटेड अलोंग विथ इट विल ऑल बी डबल्ड। दट इज हाउ वी सी एवरीवेर। अजादेः द्वितीयस्य, इफ इट इज अजादि धातु, द्वितीयस्य एकाचः द्वित्वम्, दट इज द सेकेंड वोवेल एंड द कॉन्सनेंट्स असोसिएटेड विथ इट विल बी डबल्ड। नाउ व्हाट वी हैव हियर, एधि, सॉरी इधि इत्यस्ति, चंगि ह्रस्वः, सो फॉलोड बाय चंग, वी हैव इधि, अय अजादिः, अतः द्वितीयस्य एकाचः, द सेकेंड इकार एंड द कॉन्सनेंट दट इज धकार इज डबल, दट इज हाउ वी हैव धी धी अति। नाउ हियर व्हेन वी आर डबलिंग दिस, धी इत्यत्र धकारः धातोः इकारः प्रत्ययस्य, ई बिलोंग्स टू निच, धकार बिलोंग्स टू द धातु, ओके, सो पुटिंग देम टुगेदर वी आर डबलिंग, ओके, धी धी इति कृते we are replacing this dhi, that is a part of prakriti and a part of pratyaya, with two dhi dhi, okay, that is how we are doing it. So an argument says ajadair dvitiyasya iti dhi shabda sthane dhi dhi shabda deshe sati vasnasohu iva prakriti pratyaya vibhaga sammohaha. So the argument says we can no longer distinguish what is prakriti and what is pratyaya. If it is only dhi, we can say that dhakara belongs to prakriti and ikara belongs to pratyaya. But now, once we have dhi dhi, where is the prakriti, where is the pratyaya? You say the first dhakara belongs to prakriti and then ikara belongs to pratyaya, and then again you have prakriti, which is not right. And I mean, you will have prakriti and then followed by it we will have pratyaya. Now here, once we apply dvitva, we can no longer distinguish prakriti and pratyaya. Is the argument. Prakriti pratyaya vibhaga sammohaha. He gives an example. Vasnasohu iva. What is vasnasa? Yushmad asmadohu. For the words yushmad and asmad. Shashti chaturthi dvitiya asthayohu vamnavau. In shashti chaturthi and dvitiya, the prakriti and pratyaya, you will have yushmad au, yushmad bhyam, or yushmad os. Similarly, in asmad, you will have that. Vam navau. Vam is given as an adesha for everything together. Right? So vam iti rupam. Mamma yushman vam. Evam eva, sorry. Yuvam vam. Evam eva avam nav. Iti rupa dvayam asti. Right? Shashti chaturthi dvitiya dvivachane. Evam eva bahuvachane vasnasau. Mamma avam nav asman naha. नह इति एकं रूपम् अस्ति, एवं युष्मान् वह इति एकं रूपम् अस्ति। सो तत्र सर्वत्र किं क्रियते, वस् नस् इति आदेशः अथवा वाम् नौ इति आदेशः प्रकृति प्रत्ययस्य सम्पूर्णस्य आदेशः, इट् विल् कम्प्लीट्लि रिप्लेस् प्रकृति एण्ड् प्रत्यय। नौ इन् वाम् आर् नौ वि डु नाट् हाव् वि के नाट् सी वाट् इस् प्रकृति वाट् इस् प्रत्यय, टुगेदर् इट् इस् अन् आदेश, सो देर् इस् नो लाङ्गर् अ प्रकृति, नो लाङ्गर् अ प्रत्यय। Right? Vasnasohu iva. So similarly, atrapi prakriti pratyayau militva dhi dhi iti adeshah kriyate. Instead of one dhi, you are replacing it with two dhis. So there is an adesha which removes prakriti pratyaya vibhaga. We cannot see the distinction between prakriti and pratyaya. Now if that is the case, there is no longer edha dhatu. You cannot say it is edha dhatu. Because the prakriti is also lost, the pratyaya is also lost. इति चेत् इति न वाच्यम्, दट् आर्ग्युमेण्ट् विल् नाट् होल्ड् हियर्। तत्र सत्यं वस्नसोः एवं वाम्नावौ इत्यत्र प्रकृति प्रत्ययविभागः न ज्ञायते इति सर्वैः अङ्गीक्रियते, दट् इस् ट्रू, बट् अत्र एवं न भवति। किमर्थम् द्विष्प्रयोगः द्विर्वचनम् षाष्ठम् इति षष्ठभाष्ये सिद्धान्तितत्त्वात्. इन् द षष्ठाध्याया द भाष्यकारा मेक्स् इट् वेरि क्लियर् दट् द द्वित्व हियर् इस् नाट् एन् आदेश बिकास् यु आर् नाट् रिप्लेसिङ्ग् वन् वित् टु. ओके, द्विष्प्रयोगः, यु आर् सिम्प्ली यूसिङ्ग् द सेम् थिङ्ग् ट्वैस्. ओके, देर् इस् अ डिफरेन्स्. इफ् इट् इस् एन् आदेश, यु विल् लूस् वाट् वास् ओरिजिनलि देर् न प्रकृति एन् प्रत्यय. हि सेस् इट् इस् नाट् एन् आदेश. Just a few letters are repeated twice. That is all. Dvih prayogaha dirvachanam shashtam iti shashtabhashye siddhantitatvat. So, which means the original, whatever was the prakriti pratyaya is still there. Again, the dhakara is still prakriti, the ikara is still pratyaya. So, the dh and e, two letters are simply repeated in the form. Anyatha, if you do not agree to it, ಇಹೈವ ನಿಲೋಪಃ ನ ಸ್ಯಾತ್. ವಾಟ್ ಆರ್ ಯು ಡೂಯಿಂಗ್ ಇಫ್ ಯು ಗೋ ಬ್ಯಾಕ್ ಟು ದ ಪ್ರಕ್ರಿಯಾ? ವಿ ಡೂ ದ್ವಿತ್ವ ಇ ಧೀ ಧೀ ಅತ್ ನೇರನಿಟಿ ಇತ್ಯನೇನ ನೇಹೆ ಲೋಪಃ ಕ್ರಿಯತೆ. ರೈಟ್, ನೀ ವಿಚ್ ಇಸ್ ಹಿಯರ್ ಇಕಾರ, ದ ನಿಚ್, ದ ಇಕಾರ ಆಫ್ ನೀ ಇಸ್ ಡಿಲೀಟೆಡ್ ಬೈ ನೇರನಿಟಿ. ಇಫ್ ಯು ಸೇ ದಟ್ ದರ್ ಇಸ್ ನೋ ಪ್ರಕೃತಿ ಪ್ರತ್ಯಯ ವಿಭಾಗ, ಯು ಕೆನಾಟ್ ಡಿರೈವ್ ದ ಫಾರ್ಮ್ ಅಟ್ ಆಲ್. ಯು ಡೋಂಟ್ ಹ್ಯಾವ್ ನಿಚ್. ಇಫ್ ದರ್ ಇಸ್ ನೋ ನಿಚ್, ಇಟ್ ಕೆನಾಟ್ ಬಿ ಡಿಲೀಟೆಡ್. ಇಫ್ ಯು ಕೆನಾಟ್ ಡಿಸ್ಟಿಂಗ್ವಿಶ್ ನಿಚ್, it cannot be deleted, which means that there is no nilopa. If there is no nilopa, you cannot derive the form edidhatu, ididhatu or whatever. Right? So this will happen everywhere. I mean, everywhere there is dvitva. Changi ityanena dvitve krute sarvatra lopaha na sambhavati. Nacha evamapi adadair dvitiyasya iti dhishabdasthane dhidhi shabdadeshe sati vasnasoho iva prakriti pratyaya vibhaga sammohaha iti vachyam. Dvishprayogo dirvachanam shashtam iti shashtabhashye siddhanti tattvat. Anyatha ihaiva nilopo nasyat. In the same pratyaya itself you will face problems if you don't agree to this. Also he shows another example. Jighamsati ityado sanasakarena vishishtasya dvitve krute kutvam cha nasyat. ಜಿಘಾಂಸತಿ ಇತಿ ರೂಪಂ ಸನ್ನಂತಂ ಹಂತುಂ ಇಚ್ಛತಿ, ಹಿ ಲೈಕ್ಸ್ ಟು ಕಿಲ್ ಇತ್ಯರ್ಥೆ. ಹನಹಿಂಸಾಗತ್ಯೋಃ ಇತಿ ಧಾತೋಃ ಸನ್ ಪ್ರತ್ಯಯಃ. ಓಕೆ, ಸನ್ ಇಸ್ ಬೈ ಧಾತೋಃ ಕರ್ಮಣ ಸಮಾನ ಕರ್ತಕಃ ಇಚ್ಛಾದ ಹನ್ ಪ್ಲಸ್ ಸ, ಸನಿ ಸಕಾರಃ ಅಸ್ತಿ ಹನ್ ಇತಿ ಧಾತುಃ. ಸನ್ಯಗೋಃ ಇತ್ಯನೇನ ದ್ವಿತ್ವಂ ಭವತಿ. ಓಕೆ, ದೇರ್ ಶುಡ್ ಬಿ ಎ ದ್ವಿತ್ವ. ಆಸ್ ಐ ಸೆಡ್, ದ್ವಿತ್ವ ಇಸ್ ಆಲ್ವೇಸ್ ಫಾರ್ ಏಕಾಚೋ ದ್ವೇ ಪ್ರಥಮಸ್ಯ, ಪ್ರಥಮಸ್ಯ ಏಕಾಚಃ. ಸೊ ದ ಏಕಾಚ್ ವಿಲ್ ಇನ್ಕ್ಲೂಡ್ ದ ಫಸ್ಟ್ ಅಕಾರ ಅಂಡ್ ವಾಟ್ ಎವರ್ ಕಾನ್ಸೋನೆಂಟ್ ಯು ಫೈಂಡ್ ಟಿಲ್ ದ ನೆಕ್ಸ್ಟ್ ಅಚ್. ಟಿಲ್ ಯು ಫೈಂಡ್ ದ ನೆಕ್ಸ್ಟ್ ಅಚ್, ವಾಟ್ ಎವರ್ ಇಸ್ ದ ಕಾನ್ಸೋನೆಂಟ್ ವಿಲ್ ಕಮ್ ಅಂಡರ್ ಏಕಾಚ್. ಸೊ ದ ನೆಕ್ಸ್ಟ್ ಅಚ್ ಇಸ್ ಅಕಾರ, ಅಕಾರ ಆಫ್ಟರ್ ಸ. ಸೊ ಟಿಲ್ ದೆನ್ ಹನ್ ಸ ಇತ್ಯಸ್ಯ ದ್ವಿತ್ವಂ ಭವತಿ. ಹನ್ ಸ, ಹನ್ ಸ ಇತಿ ದ್ವಿತ್ವಂ. ಸೊ ಹಲಾದಿಶೇಷ ಇತ್ಯನೇನ ಏಕ ಏವ ಹಲ್ ಶಿಷ್ಯತೆ, ಯು ಹಾವ್ ಹ, ಹನ್, ಸ. ಹೋಶ್ಚುಹ ಇತ್ಯನೇನ ಹಕಾರಸ್ಯ ಚಿತ್ರೆ ಝಕಾರ, ಝ, ಹನ್, ಸ. ಸನ್ಯತಃ ಇತ್ಯಿತ್ರೆ ಝಿ, ಹನ್, ಸ. ನೌ ಅಭ್ಯಾಸಾಚ ಇತ್ಯನೇನ ಕುತ್ವಂ, ದಿಸ್ ಇಸ್ ದ ಕೀ ಒನ್. ಓಕೆ, ಫರ್ಗೆಟ್ ಎವ್ರಿಥಿಂಗ್ ಎಲ್ಸ್ ಇಫ್ ಯು ಹ್ಯಾವ್ ನಾಟ್ ಸ್ಟಡೀಡ್ ಪ್ರಕ್ರಿಯಾ. ಝಿ, ಘನ, ಸ, ದ ಓನ್ಲಿ ಥಿಂಗ್ ಯು ಹ್ಯಾವ್ ಟು ನೋಟ್ ಇಸ್ ಸನ್ಯಗೋಹ ಇತ್ಯನೇನ ದ್ವಿತ್ವಂ ಸಕಾರ ಸಹಿತಸ್ಯ. Okay, you are doubling the prakriti hanu and also a part of the pratyaya. Just like we did dhi there, including the pratyaya we doubled. Atrapi sakaram yojaitva dhitvam kriyate. Now, abhyasatcha ityanena abhyasat parasya hantehe hasya kutvam bhavati. The hakara of hanu dhatu, when it is preceded by an abhyasa, will be converted into kavarga. Kutva means ghakara. Dhi ghan sa. Abhyasat parasya hantehe hasya kutvam vidhiyate. Atra sanvishishtasya dvitve krute. You are doubling along with the sun. Prakriti pratyaya vibhaga bhave. If you no longer can distinguish between prakriti and pratyaya, then this is no longer hanudhatu. You will have to argue that this is not hanudhatu because the prakriti and pratyaya vibhaga is lost. So if you do that, you cannot do the ghutva, kutva, sorry. Hakara cannot be converted to ghakara. So then there are the prakriya goes on. You have dirgha for dopadha by ji ghamsa, and there is anuswara for the nakara, and ji is converted to ji abhyasa satya ji ghamsati. This is how we derive. But the only key point for this argument is dvitva, including the sakara, and then the kutva. So sakara vishishtasya dvitve krute yadi prakriti pratyaya vibhaga sammohaha tarhi kutvam nasyat. You cannot apply kutva. Therefore, it is not prakriti pratyaya vibhaga sammoha here. This prayogaha dvirvachanam, you are just doubling or repeating a few letters. The prakriti and pratyaya which of the original will remain the same. Any questions? There are more arguments to this, so take time to digest and see if you have understood. So there is a third. Okay, there is a question. The sakara does not count where? Where are you asking if the sakara does not count? At which step? Can you please clarify your question, Paul?
Yeah, let's see, you have hansa,
yeah,
and then the sakara is actually not part of the prakriti. But it doesn't come along anyway. When we come down here, we only have han and gun.
No, see here, initially we have han su. We are doubling it along with the
right.
Dvitva. The argument says, once you do dvitva, the single han, the han su is replaced by han su. The akara is different.
Correct.
They're doing, saying it's an adesha, which means no longer do we have the prakriti pratyaya. You don't know which is the prakriti here and which is the pratyaya. So whatever you do next, you cannot claim that this is han dhatu. It's true that the sakara,
but, sakara is removed. The sun is removed anyway. The sakara is removed anyway. So you still
the nakara
actually are dealing only with the han.
Your nakara is also removed. So you're no longer even dealing with han. The n is also removed here. Ha. N, su
yeah.
are both removed. So that argument will
yeah.
not hold. So this is no longer han going on. But that is not the case. I mean, even if you remove that, we are talking about this part. It is only in the latter part but we have the prakriti and pratyaya. Han is the prakriti and su is the pratyaya, which is still there.
Aha. Yeah.
Not
yeah.
here, because this is this pratyaya, which this han which we are doing.
Abhyasa yeah, yeah,
parasya
yeah, yeah.
Han has.
I'm seeing it better now. Thank you.
Yeah. Okay. So the next argument, the first argument said it is no longer edhadhatu because we have shortened it. Hrasve krute nayam edhatihi. That will not hold because we have the universal rule ekadesha vikrutam ananyamati. If you change a small part of it, it will not become something else. The second argument said once you do dritva, you can no longer distinguish prakriti and pratyaya. So there is no edhadhatu, so you cannot have the sutra applying here. So etyadatyotsu will not apply here at all because it is no longer edhadhatu. So it says no, that is not how we see it. We still have the prakriti pratyaya. That is how we remove the ni. Okay. And in han sa jigham sati, for the prakriti, it is still hanadhatu and that is how we do kutva. So both prakriti and pratyaya, we do the karya separately. Right? He shows where in the same rupa. Edhidhatu ityatraiva pratyayasya lopaha krutaha. Evam jigham sati ityatra prakriti bhavasya adeshaha krutaha. So the prakriti and pratyaya remain intact, even after dvitva. Right? So the second argument will not hold good. The third argument says, Nacha antarangatvat, prathamam changi iti dvitve krate, hraswa nabhavatyeva iti vachyam. Next one says, the rupa itself is wrong. We do not have hraswa, nautangi padhaya hraswa. Why? At this stage, sorry for coming back to this one. So you have nishlidrusubha kattari changa, we did changa. Now, should we do hraswa by nautangi padhaya hraswaha? Or should we do dvitva by changi? The chang is already there. So changi ittenena dvitvam bhavativa. नौ संयुपधाया ह्रस्वः इत्यनेन ह्रस्वः भवति वा इति प्रश्नः. नौ चङि हेज ओन्ली वन् रिक्वायर्मेण्ट् विच् इस् चङ् ओके एस् लाङ्ग् एस् इट् इस् फालोड् बै चङ् यु केन् डबल् इट्. नौ चङि उपधाया ह्रस्वः हेज टू वन्स् इट् हेज टु हेव् निच् फालोड् बै चङ् ओके देन् ओन्ली द उपधा केन् बी शार्टन्. सो चङि हेज लेसर् रिक्वायर्मेण्ट् एण्ड् इट् इस् अल्पापेक्ष वेरस् नौ चङि उपधाया ह्रस्व हेज मोर् requirements and is bahvapeksha. Alpapeksham antarangam, bahvapeksham bahirangam. So the upadha hrasva is bahiranga and changi is antaranga. And what do we do? Paranitya antaranga apavadanam uttarottaram baliyaha. The bahiranga is always overruled by the antaranga. Antarangasya balavattvam. Therefore, we cannot do hrasva here at all. We have to apply changi, dvitva. Okay? So once we do dvitva, in the upadha, you no longer have this ekara. Atraiva dvitve krute. E dhi dhi iti adi kriyate. Tari upadhayam ekara ha nasti. Adha hasvaha na bhavati. Nauchangi upadhaya hasvaha itinena hasvaha na bhavati. Okay. Nacha antarangatvat. Prathamam changi iti dvitve krute. Hrasvo na bhavatyeva. You cannot apply hasva at all because the upadha then is dhakara. It cannot have hasva at all. Vai chang matra nimittatvena alpapekshatva dvitvam antarangam. The dvitva requires only chang. Therefore, it is alpapeksha and antaranga. Whereas, chang parani nimittatvena bahvapekshatva hraswaha bahirangaha. Hraswa requires a niche which is followed by chang. Okay, not just chang. Therefore, it is bahiranga. And therefore, we apply dvitva and we cannot apply hraswa. Nacha antarangatvat. Prathamam chani iti dvitve krute, hraswaha na bhavatyeva iti vachyam. Onehe rudit karanena, bahirangasyapi nau chani iti hraswasya, prathamam pravruttihi iti jnapi tattvat. Ondra apanayane iti dhatu hosti. Okay. We have this dhatu called ondra. Okay. So for this dhatu, you apply ni, nich, and then you do chang. And then you have Nauchang Yapadhaya Hraswaha Ityanena Hraswaha Prapnoti. We should actually apply Hraswa. Tada Naglopi Shatu Ruditam Iti Ruditam. If it is Rudit, if Rukara is Itu, then the Upadha Hraswa will not apply. Okay, that is the sequence. Okay. When you do the Nich and Chang for this Dhatu, there should have been Upadha Hraswa, but the Upadha Hraswa is prevented by Naglopi Shatu Ruditam. Ruditam, yadi rudit dhatuhu, tarhi upadhahraswa na bhavati. So, to prevent upadhahraswa, upadhahraswam nishedhum asmin dhatau rukaraha anubandhatvena yojitaha. The rukara it, being it in this dhatu, has a single purpose of preventing upadhahraswa in case of now ni followed by chang. Because there is no other purpose for the rukara. Now, if we argue, yadi antarangatvad adau dvitve krute hasvah na bhavati, applying the same argument there, we say that dvitva is antaranga, therefore we apply dvitva first, and therefore we don't operate rasva, tarhi atra ruditkaranam vyartham. Then there is, why did we do rudit at all? If there is no prapti for rasva, there is no need for a nishedha. Tazu rudita miti nishedha na pekshate. Tarhi atra ruditkaranam kimartham. Always remember that wherever a particle is treated as it, there has to be some purpose. Without purpose, Panini will not add anubandhas. Okay? Now, this rukara being added as anubandha has no other purpose. It is vyartha. If it is vyartha, it is always a jnapaka. It is indicator of something. So here, it indicates that onehe rudit karanena bahirangasyapi nauchangi iti hraswasya prathamam pravrittihi iti jnapikratvat. So this indicates that even if it is Bahiranga, Nauchangi will operate first. Okay, always in all cases where we have this. So if it is possible to operate Nauchangi Upadhaya Hraswaha, we always do that first. And then only we do the Dvitva. Onehe Rudit Karanena Bahirangasyapi Nauchangi Iti Hraswasya Prathamam Pravrittihi Iti Jnapi Tattva. So therefore, this argument will also not hold good. Hasva eva na bhavati iti vaktum na shakyate. Okay. Any questions? Tramadhava. He brings in one more Purva Paksha by Dhatuvritti. Madhava is the author of the Dhatuvritti. Madhaviya Dhatuvritti Hindi Bahu Prasiddham. It's a very famous text on Dhaturupas. Dhatuvritti is a text which gives the forms of the different Dhatus and why the forms are the same and so on. Okay? Dhatuvritti is a very Pramanika Grantha. Like if you want something on Kriya Rupas, we generally refer to the Dhatuvritti. So Madhava is the author of Dhatuvritti. So he has an argument regarding this. He says, Ma Bhavan Predidhat Ityatra Nati Prasangaha. There is no possibility of applying Etyathat Yutsu in Ma Bhavan Predidhat. Why? Nyantasya Shabdantaratvat Edhati Grahanena Agrahanat. He says, once it becomes Nijanta, it is a different dhatu. Edh, plain dhatu is different. Edhi, the Nijanta dhatu is different. Nyantasya Shabdantaratvat, since it is a different Shabda, different Dhatu together. Pathu is a different Dhatu. Pathu, that is Pathayati, is a different Dhatu. Okay. So, Nyantasya Shabdantaratvat, Edhati Grahanena Agrahanat. So, wherever the Sutra simply says Edhati, which is the Edh Dhatu, the Nijanta form of Edhati will not be considered here. Asmin Sutre, Nijantasya Edhatehe Grahanam Nabhavati. Atayeva hi, nabhavu pu kamigami pyayi vepam ityatra, nyantanam cha bhadinam upasankhyanam ityuktam. He gives an illustration. There is a sutra, bhavu pu kamigami pyayi vepam. Okay, there is some sutra. Okay, forget what it means for now. There is one sutra where he lists some dhatus. Okay? And the Vartikakara says, nyantanam cha bhadinam upasankhyanam. This karya will also apply to Nijantas. Panini gives just a list of dhatus. Artikagana says, Nyantanam cha bhadinam upasankhyanam. You should also add on the Nijanta forms of these dhatus. Which means, originally, the karya would not have applied for Nijantas. That is why the Vartikakara had to add on. If everywhere we can take, if once a dhatu is indicated, we can also test the Nijanta form, then here the Vartika is not required. That is a dhatu, you can automatically take the Nijanta. Kimartham nyantanam bhadinam upasankhyanam iti vishishya uchyate vartika karena kevala dhatu grahanena nijantasya grahanam nabhavati. The Nijanta will not be taken, will not be considered by when just the dhatu is indicated. Similarly, atra edhati itena edha dhatu nirdishyate tasya nijantasya grahanam nabhavati. Nyantasya Shabdantaratvat Edhati Grahanena Agrahanat Atayevahi Nabhabhupu Kamigami Ityatra Nyantanam Chabhadinam Upasankhyanam Iti Uktam. Tatraiva, there, that is under that Vartika, Shabdantaratvat Praptau Upasankhyanam Iti Kayata Nyasakara Haradatta Dibhihi Sarvaireva Uktam. So, commenting on that part, everybody says, Shabdantaratvat apraptau upasankhyanam. Nyantasya, the Nijanta, Shabdantaratvat, since it is a different Shabda, different Dhatu, apraptau, the karya which is being told here, will not apply. Ataha upasankhyanam, therefore the Vartikakara has added it on. So this is told by Kayata himself, also by Nyasakara. Nyasa is the commentary on Kashika, right, by Jinendra Buddhi. Haradatta is another commentator on the Kashika. So everybody accepts that. Shabdantaratvana prapta upasankhyanamiti kayata nyasakana haradatta devihi sarvaireva uktam. Everybody accepts that nyanta, nijanta dhatu is different from the original dhatu. Kincha, also he gives another one. Nyadhikasya api grahane. Upasargat sunoti ityatra abhishavayati iti udahratya nyantena abhehe yogat sunotim prati anupasargatvat katham shatvam iti ashankya abhehe prakrityartha visheshakatvena samadhanam bhashyakaradyuktam asangatam syat. So he gives a different context. Okay. There is a sutra, Upasarga Sunoti, etc., a long sutra, which gives Shatva. Okay. So it is a list of dhatus which are beginning with Sakara. They will get Shatva when there is a nimitta in the Upasarga. Upasarga nimitta paresham, Sunotyadina, Shatvam Bhavati. Okay. The Sakara is converted to Shakara. There, the example would be Abhishunoti. Okay, so you have Sunoti, so you have Abhi, so Abhishu iti bhavati. There, the Bhashyakara gives an example, Abhishavayati, Sunoti ityasyani jante savayati iti bhavati, Abhishavayati iti seve, Abhishavayati iti udaharanam dadati. Okay, he gives an example, Abhishavayati. There, he raises a question, Nyantena abheha yogat, Sunotim prati anupasargatvat, Katham Shatvam. How do we have Shatva here? The Upasarga is for the Nijanta. Okay? Abhi and Savayati. The Upasarga is for the Nijanta, not for the plain Dhatu. Sunotim prati anupasargatvat. It is not an Upasarga for the plain Dhatu. Okay? It is an Upasarga for the Nyanta. And the Sutra only indicates the plain Dhatu. So how can we have Shatva here? Is the question raised by the Bhashyakara. Prakrityartha visheshakatvena samadhanam. And he says, it is visheshana, it is qualifying the prakrityartha. That is the su iti dhatohu yahartha. Tasyaiva visheshanam abhi ityanena kriyate. Therefore, it is still abhi and the sunoti, the su dhatu. Therefore, we can have shatva here. Is what the Bhashyakara says. Asangatam syat. Now, if always we take the Nijanta along with the plain Dhatu, this question would not have risen. The Bhashyakara raises a question and answers it. Yadi sarvatra dhatu grahanena nijantasyapi grahanam, tarhi ayam prashnaha eva na udbhavati. This question will not raise. So why does the Bhashyakara raise this and answer it? Because Nijanta form cannot be considered along with the Kevala Dhatu. Kevala dhatu grahanena nijantasya grahanam na bhavati. Atayeva ayam prashnaha bhashyakarena udbhavitaha prakrityartha visheshanatvam ityanena samahitam cha. Kincha nyadhikasyapi grahane upasargat sunoti ityatra abhishavayati iti udaharatya nyantena abheha yogat sunotim prati anupasargatvat katham shatvam iti ashankya. Abhehe prakrityartha visheshakatvena samadhanam bhashyakaradyuktam asangatam syat. So the whole thing will be not required. The prashna itself will not rise if we argue that the nijanta is also considered along with the plain dhatu. Nacha herasani iti lingat prakritigrahane nyadhikasyapi grahanam iti bhramitavyam. He is answering some Purva Paksha of his own. Hera Chani iti sutramasti. Changbhinne sthale hehe kutvam bhavati iti vidhiyate. The he gets kutvam other than cases where there is chang. Changbhinne sthale. Yadi prakriti grahanena nijantasya grahanam eva nasyat. If by a prakriti grahana, by taking a dhatu, we will not consider the nijanta, then in chang, chang always applies on nijanta, right? Nishrisrudrubhyaha itinena, nijanta deva chang bhavati. If by taking he, you do not take consider the nijanta, then changi kutvasya iva aprasakte he. We cannot have kutva in chang, because it is nijanta. Yadi nijantasya grahanam na bhavati, tarhi changi pare kutvam na prapnotyeva. Tarhi achangi iti nishedhakutaha. Why say it will not operate in chang? It will anyway not operate. Kevala dhatuna yadi nijantasya grahanam nasti, tarhi changi kutvasya prasaktireva nasti, tarhi achangi iti nishedhakutaha. Nishedhaha vyarthaha. Kena kim nyayate, prakriti grahane nyadhikasya api grahanam. Wherever you take some prakriti, we also take the nijanta. Iti na bhramitavyam. You should not be confused like this. He says that is a confused argument. Why? Vyartham sadhyapayati prakriti grahane nadhikasyapi grahanam iti. So he says no. Why? Jnapakasya kutvamatra vishayakatvat. The jnapaka here is correct. But what does he say? it says that kutve, when we have to apply kutva, kevalasya prakatayar api bhavati, nedhikasya api bhavati. So this nyapaka is limited to kutvas. Kutva vishaye, prakati grahane, nedhikasya api grahanam. Arthadeva prakateha kutvam vihitam, nidantasya api kutvam bhavati. Anyani karyani na tatha. Anyeshu karyesu, shu, prakati grahane, nedhikasya grahanam na bhavati. Tathaja vartikam, hehe changi pratishesha anarthakyam, anganyatvat. So the Vartika in this case, Hera Changi says, hehe changi, when he is followed by chang, pratishesha anarthakyam, saying achangi iti pratishesha anarthakaha, kimartham anganyatvat. It is a different anga. The just he is a different anga, followed by nich, nijantam tu bhinnam angam. Therefore, this pratishesha is anarthaka, is what the Vartika Kara says. Nyapakam tu changahanyatra nyantepi kutvabhavasya. So he says it is a nyapaka. This indicates that changahanyatra, other than chang, nyante api kutvabhavasya. Kutva will operate even for nijantas. It is not a general nyapaka. It does not say that everywhere, whenever we have prakriti, we can also take nijanta. It just says kutva will operate even for nijanta other than chang. Okay, tavadeva jnapakam, ataha prakriti grahane nedhikasya grahanam iti nasti. Wherever we take prakriti, you cannot take along with the nijanta. Tasmad yukti virodhat, because of virodha against all these points, he made 3 points. His point is that edha, the plain dhatu edha, is different from the nijanta. To support this, he furthers 3 arguments. One, in Nabha Bhupu Sutra, the Vartika Kara says you have to take on nijantas. He specifies addition of nijantas. If we always take nijantas along with the plain dhatu, no need for that Vartika. Second one, Upasarga Sunoti Ityatra Nijantasya Udaharanam Dattva Bhashyakaraha Prashnam Udbhavayati Katham Nijantasya Grahanam Iti Tataha Uttaram Dadati. Yadi prakriti grahanena nijantasya grahanam syat, tarhi idam ayam prashnaha na udiyat. The question would not have risen. Therefore, it is not, we cannot take nijanta wherever a plain dhatu is specified. The third thing he says, hera changi will not work. Prakriti grahanena nijantasya grahanam iti to kutve eva anyatra nasti. Tasmat, yukti virodhat. Bhashya Vartika Vritti Nyasadi Granthaihi Virodhat. Because it goes against Bhashya Vartika Vritti, that is the Kashika Vritti, and Nyasadi Granthaihi, Nyasa and other commentaries. Purvapara Svagranthena Cha Virodhat. It is also against what Tayata himself has said in his own Grantha. That is Bhabhu Ityatra Shabdantaratvena Apraptau Vachanam Iti Kayatena Swayamuktam. Taha Svagrantha Virodhat Upekshaha Yam Kayataha. This kayata, what kayata states in Ma Bhavan Predidhat, Upekshaha is to be ignored. It is not correct. Ma Bhavan Predidhat cannot be a counter example for Etyadhat Yutsu. Vriddhi will not apply there. Therefore, to prevent that Vriddhi, we need not have Eti as a Visheshana to Edhati. Is this much clear? Any questions so far? Okay, now Dikshitar will answer these objections. Madhava raised a few points and said that Mahabhavan Predidhatu is not a proper example or counter example. Dikshitar will answer each of these objections. So, should we study that today? Or do you want time to digest this argument and study this in the next class? How many people are ready to continue. That is, your brains are ready to continue. You can raise your hands if you are okay with continuing now. One only. Okay. There is one for this class and one for next. What did others say? Okay, we will do this in the next class. Okay, so don't be disappointed. We will see this answers, Dikshita's answers to this in the next class. And the next class will not be next Saturday. I'm sorry that we are shifting house, so I don't think I will have internet connection next week. So we will see the week after next, which is 19th, and after that should be 26th. Okay. So the next class will be on 26th of April. Okay. Yeah, we are moving. I mean, houses within Chennai. Okay, we're going to a different place, so the phone will. I'll probably not get it before then. Okay. So we'll stop here. Thank you for the wishes. Dhyayam dhyayam param brahma smaram smaram gurur girah. Siddhanta Kaumudi Vyakhyam Kurmah Proudha Manoramam.